अन्दमयं ब्रह्मविहारकरणं करोमसे
अहं सुखितो होमि नेतृतो होमि आवेरो होमि आत्मया पचो होमि अनिको होमि सुखी आतानं परिहारामि सर्वे सदा सुखिता हुन्तु सर्वे सदा अवेरा हुन्तु सर्वे सदा अभया पचा हुन्तु सर्वे सदा अनिघा हुन्तु सर्वे सदा सुखी आतानं परिहारन्तु सर्वे सदा सर्वदुःखा पमुञ्चन्तु सर्वे सदा लब्धसम्पतितो मा विगच्छन्तु सर्वे सदा कम्मसखा कम्मदायदा कम्मयोनि कम्मबन्धु कम्मपतिसरणा यं कम्मं करिष्यन्ति कलयानं वा पापकं वा तत्सदायदा भविष्यन्ति
In freedom from affliction, in freedom from hostility, in freedom from ill will, in freedom from anxiety, and may I maintain well-being in myself. May everyone abide in well-being, in freedom from hostility, in freedom from ill will, in freedom from anxiety, and may they maintain well-being in themselves. May all beings be released from all suffering, and may they not be parted from the good fortune they have attained. When they act upon intention, all beings are the owners of their action, and inherit its results. Their future is born from such action, companion to such actions, and its results will be their home. All actions with intention, be they skillful or harmful, of such acts, they will be the heirs.
अन्दमयं चतुरपमन्योभासनं करोमसे
मेतासहगतेन चेतसा एकं दिशं परितवा विहरति तथा द्वितीयं तथा तृतीयं तथा चतुर्थम् इति योधम्बरो दिर्यं सा प्रतिसापा तथा यसा पावन्तं लोकं मेतासहगतेन चेतसा विपुलेन महाकतेन अपमानेन अवेरेण अभयापचेन परितवान् विहरति करुणा सहगतेन चेतसा एकं दिशं परितवा विहरति तथा तृतीयं तथा तृतीयं तथा चतुर्थं द्वितीयोधमदोदिर्यं सा प्रतिसापा तथा यसा पावन्तं लोकं करुणा सहगतेन चेतसा विपुलेन महागतेन अपमानेन अवेरेण अभयापचेन परितवा विहरति मुदिता सहगतेन चेतसा एकं दिशं परितवा विहरति तथा तृतीयं तथा तृतीयं तथा चतुर्थम् इति योधमदोदिर्यं सा प्रतिसापा तथा यसा पावन्तं लोकमुदिता सहगतेन चेतसा विपुलेन महागतेन अपमानेन अवेरेण Sukaya Pachena Paritava Viharati Upekha Sahakatena Chetasa Ekam Nisam Paritava Viharati Tata Dutiyam Data Datiyam Data Chaturtham Itiyo Dhammaro Diriyam Sabhati Sabha Tata Yasabha Vantam Lokam Upekha Sahagatena Chetasa Vipulena Mahagatena Appamanena Avera